Om Sivaya Namah. Dear listeners of Shaivam.org, the next program is Purana Parayanam. In this, you are about to listen Skanda Mahapuranam. The title is Maheshwara Kandam Part 3 Uttarardham. Thank you. Om Sivaya Namah.
अथ नवमोऽध्यायः नन्दिकेशर उवाच अहमेव प्रपुरिति प्ररूढाधिकगर्वयोः विरिञ्चच्युतयोरासीत् विवादो मोहसम्भवः रजो विकाराभ्यधिको बाह्ये नील इवोत्थितः विश्वसृष्टिकरो विष्णुम् विरिञ्जो ब्रूत गर्वतः ब्रह्मोवाच कथम् त्वमधिकश्चासि विष्णो जनयितुर्मम पितामहस्य लोकानाम् किमेवमतिमोहितः त्वत्त एवोदितौ दैत्यौ निहत्यमथु कैडपौ दैत्यारिति मुग्धत्वम् गर्वम् वहसि केशव त्वामेव सृजतो नित्यम् बहुधा मम वेधसः अध्याप्यायासजाम् पीडाम् न परित्यजतः करौ मम श्रमाम्भसोद्भूते महाम्बोधौ निमज्जतः नय्य ग्रोधम् न चोत्पन्नम् कुतस्तेऽस्त्ववलम्बनम् मधुपत्न्ये महाम्बोधौ स्रवते कोऽपि पन्नकः तदाश्रयस्त्वमूर्ध्वम् ते पद्मम् तच्चासनम् मम कुतस्तमो मये ब्रूहि त्वयि सत्त्वगुणोदयः सवेत्सि किम् त्वम् प्रकृतिम् निद्राजडिमनिर्भरः जलाशये प्रस्वपता दैत्यभीत्या जनार्दन कथम् त्वया रक्षितासौ मदधीना जगत्त्रयी चतुर्भ्यो मम वक्त्रेभ्यो वेदा समुदयम् गताः चैतन्यरूपिणी शक्ति कलत्रम् मे सरस्वती मया हि सृज्यते विश्वम् इदम् स्थावर जङ्गमम् रक्ष्यते च तदिन्द्राद्यैर्मामकैः पुत्र पौत्रकैः ततः कथय वैकुण्ठ मन्नियोज्येषु कश्चन जगदामीश्वरान्मत्त कथम् नामादिरिच्यसे नन्दिकेश्वर उवाच इत्थम् सरोष संरम्भे विधौ पौरुषभाषिणि नारायणोऽपि सा सूयम् स्मित्वैवम् समभाषत विष्णुरुवाच विरिञ्जे मुञ्ज संरम्भम् वृथा खलु विकथसे नाभि सरोज सञ्जातो मम त्वम् अवधारय योग निद्राम् मयोन्मुच्य पुराहमधु कैठभौ न चेद्यन्मथितौ ताभ्याम् तथैव स्या प्रणाशितः सोमक प्रमुखान् दैत्यान् हन्तुमात्मेच्छया मम धृतमत्स्यादिरूपस्य को वान्यसृष्टिकारणम् न किञ्चिदपि पश्यन्ति रजसारूढदृष्टयः रजोमयेन भवता किम् निरूपयितुम् क्षमम् अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी यस्या कडाक्षमात्रेण जगत्त्रितयमेधते भूतान्यमूनि कालेयम् आत्मनोऽप्यहमेव हि मया विरहितम् किम् वा त्रिषु लोकेषु विद्यते आदित्या वसवो रुद्र दिक्पाला मनवोऽप्यहम् भूर्भुवः स्वस्त्रयीमेनाम् मदधीनाम् विचिन्तय ममैव विनियोगेन सृष्टिशक्तिः स्वयम् स्थिता तन्मे त्रैलोक्यनाथस्य किम् त्वम् ज्येष्ठः समोऽथवा नन्दिकेश्वर उवाच एवम् मोहान्धमनसो अन्योन्यम् प्रति गर्जतोः ययावनल्पसमयः संवर्तः सदृशस्तयोः उदयास्तमयौ स्याताम् न तदा चन्द्रसूर्ययोः नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणताम् ययुः नाववुर्मरुतो वा न जज्ज्वलुर्जात वेदसः नान्तरिक्षम् न चक्षोणि न दिशोऽपि च काशिरे समुद्राश्चुक्षुभुः सर्वे पर्वताश्च च कम्पिरे औषध्यः शोषमासेदु रवसेदुश्च जन्तवः पक्षमासर्तु वर्षादि कालस्य नियमो गतः अहोरात्रव्यवस्थापि प्रणाशम् समुपाययौ इन्द्रादयो लोकपाला मरीच्याद्यामहर्षयः सर्वेऽप्यकाले सम्प्राप्तम् कल्पान्तम् मे निरे तदा एवम् जाते महाक्षोभे भूताक्रन्द प्रचोदितः भूतनाथो जगज्जातमविद्यायामबुध्यत व्यचिन्तयच्च विश्वात्मा विश्वसंरक्षणोद्यतः अबाह्यायादृशा पश्य धनयोर्मोहकारणम् स्वामिनम् सकलैश्वर्य दातारम् माम् मदोत्थतौ विस्मृत्य स्वम् स्वमेवैताम् वमंसेताम् जगत्प्रभु अहो मोहस्य माहात्म्यम् यदिमौ द्रुहिणाच्युतौ जानानामवपि माम् सम्यग् अभूतामेव मुद्धतौ अज्ञानतिमिरोद्भूति दूषिताशयलोचनः जनः प्राप्तम् स्तुतिमपि प्रायो वस्तु न पश्यति कृतापराधावप्येतौ निमग्नो मोहसागरे मया नोपेक्षणीयौ हि लोकानाम् हितकाम्यया इति निश्चित्य मनसा माया वैवश्यमेतयोः देवो दयामहाम् बोधिर्व्यपोहयितुमैहत अहोऽनुकम्पा तरुणेन्दुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् असौ प्रमोहाम् बुधिमध्यतोऽभूत् आविर्निरस्तावभिधातृविष्णु इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे ब्रह्मविष्णुविवादवर्णनम् नाम नवमोऽध्यायः अथ दशमोऽध्यायः मार्कण्डेय उवाच आज्ञापय विभो मह्यम् यथा शम्भुः सनातनः अनुजग्राहमोहान्थौ वैकुण्ठपरमेष्ठिनौ नन्दिकेशर उवाच शृणुष्व सर्वम् वक्ष्यामि विस्तरेण यथा तथम् यदेव देवो विदधे दयाया भक्तवल्सलः अथो दस्तात्तयोर्मध्ये तथा विवदमानयोः ज्योतिस्तम्भत्वमभ्येत्य रोदोरन्ध्रनिरोधकः महता जृम्भमानेन तस्य ब्रह्माण्डभेदिनः अन्तरिक्षमतिश्यामम् समुक्षिप्त मिवाभवन् विश्व विवर्णता तस्य ज्योतिर्लिङ्गस्य तेजसा दिशो विरेजिरे सद्यो दूरविस्तारिता इव तीव्रैस्तस्य महाज्वालै शोषिता इव सागराः विमुक्तवीचि संक्षोभाः स्वामेव प्रकृतिम् ययो व्यद्यो तन्दधि विप्राग्वद् ग्राहास्तारागणैः सह तेजस्तम्भात् समुद्भिन्ना पुलिङ्गा इव केचन तेजसा तस्य शोणेन गौरिकेणेव रञ्जिता हौम रविश्रियम् सर्वे व्यवहन्नवनीभृतः समुद्रास्तत्प्रतिच्छाया निर्भराश्लिष्टयादसः पद्मरागशिलाखण्डे खटिता इव रेजिरे प्रवालगुच्छै प्रत्यग्रे लम्बिता इव पादपाः नद्यश्च निर्भरोद्भुल्ल कल्हारा इव रेजिरे मही कुङ्कुमलिप्तेव दिश सिन्दूरिता इव सर्वारुणमिव व्योम समन्तात् प्रत्यदृश्यत ब्रह्माण्डकर्परम మభూత్ తన్మహ పూరితాంతరం శోణితేనేవ సంపూర్ణం కపాలం కృత్తివాససః ఏవం ప్రవర్ధమానేన తేజస్తంభేన తేన చ అరుణాకారతాం భేజే విశ్వం స్థావర జంగమం తేజోలింగం తదాశ్చర్యం దృష్ట్వా త్యక్తమిధ కృథౌ అచింతయేతామేకైకం చతుర్ముఖ చతుర్భుజౌ కిమేష వసుధాం భిత్వా శేషాదీనాం ఫణాపృతాం ఫణామాణిక్యమహసాం రాశిరున్ముఖతాం గతః కిం వా కల్పాంతసులభ ప్రాదుర్భావ ప్రభాకరాః ద్వాదశాపి నభో భూమ్యోర్మధ్యేయుగపదుత్థితాః ఆహోస్విన్మేఖ సంఘర్ష ద్వితతా వ్యోమమధ్యతః అన్యోన్యం మిలితా క్షిప్రా నిపతంత్యవనీతలే ప్రతిఘ్నేష తేజోభి రక్ష్ణో శక్తిమనుక్షణం స్వనిర్విశేషయత్తా శేష భూతజాల ప్రవర్ధతే ఏష ఉద్దీప్యమానోపి సంతాపాయన కల్పతే నేదీయాంస్యపి భూతాని న నిర్దహతి వన్నివ ఏతస్య కాంతి సంక్రాంత్యా జగదేవ న కేవలం మదీయమపి శోణత్వం అనుప్రాప్తమహోవపుః తస్మాదేశ సముత్పన్నః కిమూల కిముపాధికః కుతస్త్య కిముపాదాన కయా శక్త్యా ప్రకాశతే కియానబధిరేతస్య విశ్వక్తిర్యగతోర్ధ్వతః అవగాఢశ్చ పాతాళం కియన్మాత్రమసావితి తదేతదఖిలం జ్ఞా మనఃపర్యుత్సుకం ముహుః ఇచ్ఛత్యుత్పతితుం వ్యోమ ప్రవేష్టుం చరసాతలం ఇతి చిందాభరాక్రాంతౌ తేజస్తంభావలోకనాన్ ఉభావప్యకు అవకులితౌ వైకుంఠ పరమేష్ఠినౌ అభాషత చ గోవింద సుతరామేవ గర్వితం హిరణ్యగర్భమాలోక్య స్మయమానముఖంబుజః విష్ణురువాచ అయమేవావయోర్బ్రహ్మన్ అన్యోన్యోత్కర్షకాంక్షినో సత్యమేవ పరీక్షాయై నికషః సముపస్థితః అముష్య తేజసాం రాశేరపరిచ్ఛేద్య సంపదః ఆద్యంతౌ జ్ఞాతుమేకేన న శక్యం ధ్రువమావయోః యత్ పశ్యేన్మూలమగ్రం వా తేజసోస్య స్వయంభువః స ఏవ నావభ్యథికో జగత్ నాథ కోపి సహ నందికేశ్వర ఉవాచ ఇత్యుభావపి వినిశ్చితాశయౌ మూలమగ్రమపి తస్య వీక్షితుం తేజసోతి మహతో బభూవతు వర్ధయా విరచితోద్యమౌమితః ఇది శ్రీ స్కాందే మహాపురాణే ఏకాశీతి సహస్రం సంహితాయాం ప్రథమే మాహేశ్వర ఖండే శ్రీ అరుణాచల మహాత్మ్యే ఉత్తరార్ధే బ్రహ్మ విష్ణవోర్మధ్యే తేజోమయలింగ ప్రాదుర్భావ వర్ణనం నామ దశమోధ్యాయః అథ ఏకాదశోధ్యాయః నందిగేశ్వర ఉవాచ అథ హంసాకృతిం వ్యోమ పదవీలంఘన క్షమాం భేజే విరింజస్తస్యాగ్రం ద్రక్ష్యామీతి కృతోద్యమః జగ్రాహ విష్ణుర్వారాహం విగ్రహం దృఢ విగ్రహః విశ్వంభరా వినిర్భేద క్రీడాసులభ వైభవం మూలం తస్య పరిజ్ఞాయ ప్రత్యావర్తిదుమోత్సుకః కృత్రిమస్తబ్ధరో మైష దంష్ట్రాభ్యామభి నన్మహీం విదారయన్ సపోత్రేణ భూతధాత్రీమవాంగ్ముఖః మహావరాహోదృశే తేజస్తంభం నమన్నివ క్రీడాక్రోడకఠోరేణ కంఠఘోషేణ పూరయన్ పాతాళం బహులోత్సాహః ప్రవేష్టుముపచక్రమే వివేశ యత్ర యత్రాసౌ తత్ర తత్ర తథాస్థితం అవైక్షిష్టానలస్తంభం తమేవ కుహనాకిటిః విదారితాన్ మహీరంధ్రాన్ ప్రత్యదృశ్యంత భోగినః प्ररोह इव शेषाद्या तेजस्तम्भस्य केचन प्रत्यदृश्यत हे माद्रेर्मूलकन्द इव स्थितः आधारताम् गतो दृष्टो ह्यच्युतेनादिकच्छपः आराद्वसुन्धरा गुल्फे धुरन्धरतया स्थिताः दिक्सिन्धुराश्च दृश्यन्ते मदमन्धरबन्धुराः मथुद्विषा च स महान् मण्डूकोऽपि विलोकितः अखण्डमण्डलम् भूमेर्यस्य पृष्ठे प्रतिष्ठितम् आधारशक्तिमपि ताम् अभ्यपश्यदथोक्षजः यदनुग्रहतः शेष कूर्माद्या अपि धूर्वः अतलम् वितलम् चैव सुतलम् नितलम् तथा तलातलम् च प्रतलम् महातलमिति क्रमात् ददर्श सप्तपातालान् अपि वारिजलोचनः तत्रत्यान् विविधाकारान् सर्वानपि सविस्मयः अत्यगाद्भोगवत्याख्याम् पुरी वैरोचनीमपि जगाहेन्यांश्च दैत्यानाम् आवासानतिगह्वरान् इदम् दृष्टमिदम् दृष्टम् इत्युपारूढ कौतुकः मूलम् मुग्धाशयस्तस्य विचिनोति स्म माधवः अथस्तादपि गाढेन पयोथेस्तेन पोत्रिणा तथैव तेजस्तम्भः स निर्विकारमवैक्षत दलिता केवलम् पृथ्वी पाथोराशिर्बिलोलितः नैवालोक्यत तन्मूलम् कोलरूपेण विष्णुना इत्थम् वर्षसहस्राणि भ्रान्त्या सम्भ्रान्तमानसः नालम्बभूव तन्मूलम् लीलाक्रोडो विलोकितम् अवरुग्नखुरक्षुण्ण दंष्ट्रो विध्वस्तद्विग्रहः भग्नपोत्रः स भूदारो जगाहे बहुलम् श्रमम् शान्त्या निःश्वसतस्तस्य तादृग्दर्पो विशृङ्खलः न नाशतक्षणत् साकम् तन्मूलावेक्षणेच्छया अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सुकः न च क्षमे सरोजाक्षश्चलितुम् च पदात्पदम् श्रमान्धचक्षुषस्तस्य पातालान्तरवर्तिनः तत्तेज एव पन्थानम् पुनरप्युदभावयन् कथम् कथञ्चिदुत्तीर्णोऽप्यकूपारादपारतः स्वेदाम्भः सागरस्रावे मग्नोऽभूच्छद्मशूकरः रज्वेव तेजस्तम्भस्य प्रभया सानुबद्धया लब्ध्वा चलम् वनम् कष्टम् न्यवर्तिष्टजनार्दनः नावैक्षियन्मया मूलम् अमुष्यमहसाम् निधेः ततः स्रष्टापि नो दृष्ट शिरोभागः कथञ्जन अमुष्यमहसाम् राशेः प्रागभूद्यत्र सम्भवः ततो निवृत्य यास्यामि शरणम् शिवमीश्वरम् स हि विश्वाधिको देव स्थिरम् मोहान्धचक्षुषा यद्विस्मृतो मया तस्माद् उर्विपाको जनीदृशः एवम् विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः तमेव देशम् प्रबभूव यत्र स्तम्भः स तेजोमयताम् दधानः इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्धे विष्णुना लिङ्गाधोभागशोधनवर्णनम् नाम एकादशोऽध्यायः अथ द्वादशोऽध्यायः नन्दिकेश्वर उवाच ततस्तेजोमयम् स्तम्भम् अनुसृत्य पितामहः उत्पपातोन्मुखो वेगान् निरालम्बे नभस्थले द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः व्यशीर्यन्दसमुद्धर्ता प्रणुन्ना इव वायुभिः स वेगादुत्पदन् दूरम् नाक्ष्णो विषयतामगात् केवलम् दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत मायामरालो ददृशे तेजस्तम्भस्य पार्श्वतः सन्ध्यापयोधराभ्यर्न चारीवरजनीकरः प्रागात्यागादुत्पतताम् ततोध्वानम् पयोमुचाम् विमानपदवीम् पश्चात् तारावर्तम् ततः परम् तेजसाम्यानि धामानि ह्यत्युच्चान्नर्ध्वचारिणाम् अधिचक्रामवेगेन तान्यसौ कुहनाखगः मरुतो मनसो वापि जवःसूक्ष्मतराकृतेः सोऽभूदथः कृतस्तेन हंसेन गमनादिना यथा यथा चोत्पपात सुदूरम् शमितच्छदः तथा तथा च ददृशे तेजस्तम्भः समुन्नतः अतीत्यमरुताम् स्कन्धान् सप्त सम्प्राप्त विस्मयः बिभेदाण्डकटाहम् च ज्वलन्तम् तमुदैक्षत कथम् वा दृष्टमूलस्य स्थातव्यम् पुरतो हरेः अविमोचयतः शौरेः असमासमशीर्षताम् अनिर्व्यूढप्रतिज्ञस्य दीर्घै किम् वा ममासुभिः तदत्रौपयिकम् किम् स्यात् कार्यम् का वा गतिर्मम अधिसन्धित्सतो विष्णुम् कः सहायो भविष्यति आर्जवम् नैव निर्जेतुम् प्रतिवादिनमक्षमः छद्मनावादिरस्कुर्यान् मानो हि महताम् धनम् इति सञ्चिन्तयत्येव विरिञ्जो व्याकुलात्मनि आकाशे ददृशे नाति दूरे किमपि निर्मलम् ऐन्दवी किमयम् रेखा तस्या कथमिहागमः यद्वा मृणालम् तत्सिन्धौ वियत्यस्याम् कुतस्तु सः इति तस्मिन् ससन्देहे नेदीयस्तम् तदागतम् अबोधिकेतकीवर्हम् इति राजीव जन्मना तत्पर्युषितमप्युद्यत् सौरभम् वस्तु शक्तितः हिरण्यगर्भो विमलम् अगृह्णात्केतकच्छदम् गृहीतमात्रम् तेनैतद् स चैतन्यम् किलाब्रवीत् केतक उवाच भागृह्णासि किमर्थे त्वम् मुञ्च माम् विश्रमोद्यतम् वर्षाणाम् शतसाहस्रम् उत्पत्यैवम् विहाय सा नन्दीश उवाच तथा समेधमानम् तम् दृष्ट्वा शममखिद्यत अचिन्तयत् पद्मसूति रत्यन्तम् विहताशयः अनिर्व्यूढप्रतिज्ञावान् नीचतामतिसंश्रितः आक्रान्तरोदो विवर क्वराशिस्तेजसामसौ अहमेतत्परीक्षायाम् क्व परिच्छिन्न पौरुषः भज्येते इव मे पक्षौ दृशा चान्धायते इव प्रध्वंसन्त इवाङ्गानि पदामीवाहमप्यथः किं मान्यद्बहुनोक्तेन सह निःश्वासवायुभिः मम प्राणाश्च नियताम् निर्गच्छन्तीव साम्प्रतम् अहङ्कारमतग्रन्थि रयम् त्रडतु चित्ततः मुकुन्देन सह स्पर्धा सा च शीघ्रम् प्रणश्यतु यदेष रोदः कुहर परिणाहाधिकोद्यमः औन्नत्यमयतोऽद्यापि तेजस्तम्भो यथा पुरा तदस्य तेजसाम् राशेर् नाहं नारायणोऽथव कारणं दूरतश्चान्ये महेन्द्रप्रमुखासुराः इतो नोत्पतितुं शक्ति रस्ति मे तन्निवर्तये इति निश्चित्य मनसा विधाता जात विस्मयः प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति स च प्रत्यब्रवीदेनं वेधसं केतकच्छदः केतकच्छद एवासं स चैतन्यः शिवाज्ञया तेजस्तम्भात्मनः शम्भो तस्य मूर्ध्नि चिरं स्थितः भूलोक इच्छया वस्तुं ततः सम्प्राप्तवानहम् इत्थं श्रुत्वा केतकी बर्हवाचं लब्ध्वा श्वासं तं किलां भोजभूतिः ब्रूहि त्वं मे तत्कियत्यन्तरे वा तेजस्तम्भस्याग्रमित्यापभाषे इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मणा लिङ्गोपरिभागशोधनवर्णनं नाम द्वादशोऽध्यायः अथ त्रयोदशोऽध्यायः नन्दिकेश्वर उवाच केतकी बर्हमप्येनं विहस्य पुनरब्रवीत् केतक्युवाच अपि मूढन किञ्चित् त्वं वेत्सि कस्त्वं कुतो न तत् ईदृश्य परितो लग्ना यस्मिन् ब्रह्माण्डकोटयः तस्य प्रमाणमेतावत् इति को वेदितुं क्षमः चतुर्युगायुतैर्यातं ततो निपततो मम इदानीमपि नाप्नोति तन्मध्यं किल भूतलम् इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः हित्वा निजमहङ्कारम् अभाषत कृताञ्जलिः ब्रह्मोवाच महात्मन् सत्यमेवास्मिन् मूढोऽहं केतकच्छद ब्रह्मणा हि मया स्पर्धा विष्णुना सह निर्मिता द्वाभ्यामपीदमावाभ्याम् विस्मृतं शिव वैभवम् यन्नौ महानभूद्गर्व सर्गसन्त्राणमात्रतः ह्रेपणी सङ्कथा तावत् आस्तामद्याप्यहं यत स्पर्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि असंस्तुत धियं हित्वा कर्तुमर्हस्यनुग्रहम् अहं विष्णुश्च मोहान्तौ तेजस्तम्भस्य वीक्षणात् हंसकोलाकृति दध्वो मिथः साम्यं व्यपोहितुम् मूलं दिदृक्षुः सदशाम् कीदृशीं यातवानिति न जाने मम चास्याग्रम् दिदृक्षोरीदृशी दशा गतमुड्डीयमानस्य मे सहस्रेण हायनः जातश्रमोऽस्मि नितराम् वियुज्य इव चासुभिः दिष्ट्याद्यभद्रलब्धस्त्वम् मया लम्बोऽवसीदताम् तन्मे कुरुष्व मित्रस्य सफलाम् याचनामि माम् सखाहं सहसञ्जल्पात् अस्मि दासोऽनुषज्जनान् तत्त्वया करणीयैवम् प्रार्थनैषा कृताञ्जलिः यदि पश्यति मूलं स जितोऽहममुना तदा यद्वा न पश्यति तदा यस्मिन् साम्यमुपेयिवान् इदं द्वयमपि प्रायो ममातिह्रेपणं सखे त्वयैव परिहार्यत्वम् इदानीं समुपागतम् अनृतामभिभाषत्वम् उचितां च सुहृत्कृते गिरमेकामि मामग्रे चक्रपाणेरुदीरय एष हंसाकृतिर्ब्रह्मा तेजस्तम्भत्वरूपिणः अत्युच्चं दृष्टवानग्रम् अत्र साक्षी स्थितोऽस्म्यहम् तेनापि तेजस्तम्भत्वम् एयुषा चन्द्रमौलिना सम्भावितोऽयम् सुतराम् पित्रेव हि पितामहः अतोऽयमेवाभ्यथिको भवतो विष्टरश्रवाः इत्युक्त्वा मम साहाय्यम् सुमहत्क्रियताम् त्वया नन्दिकेशर उवाच एवम् भूय प्रार्थितोऽयम् विधात्रा दाक्षिण्यार्द्रः केतकी बर्हकोऽपि तेजस्तम्भाभ्यर्नभाजे तथैव प्राहाशेषम् विष्णवे ब्रह्मवाक्यम् इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यम् संहितायाम् प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे ब्रह्मणा सत्यसाक्ष्यार्थम् केतकच्छत प्रार्थनावर्णनम् नाम त्रयोदशोऽध्यायः।